यस्य विश्व उपासते प्रतिसंयस्य देवाः जाग्रवाम सत्समिन्धते विष्णोर्यत् परमं पदम्
ब्रह्मांडना